एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम्। प्रवाचकः उपेन्द्र दहालः। राष्ट्रपतिः विद्यादेवी भण्डारी, प्रधानमन्त्रिणा, नेपाली कांग्रेस दलस्य सभापतिना च शेरबहादुर देवाभिधेन सह कांग्रेस दलस्य शीर्ष नेतृभिः सह ह्यो व्यमृशत्। शीतल निवासवर्तिनी राष्ट्रपति भवने एतेषां मध्ये नागरिकता सम्बद्ध विधेयकस्य आगामिनो मार्च शीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभा प्रदेशसभानां निर्वाचनस्य पूर्वकार्यस्य सामयिकतायाश्च विषयेष् विमृष्टमिति राष्ट्रपतेः प्रमुखस्वकीय सचिवः डॉ भेषराज अधिकारी अज्ञापयत्। मेलने राष्ट्रपतिना भण्डारिणा नागरिकता विधेयकस्य सम्बन्धे जिज्ञासाम् उद्भावयन्त्या विशेषमिन् दलानि संयुक्त धारणां निर्मातुम् अनुरुद्धानि असौ अगदत्। एवमेव प्रधानमन्त्रिणा देवाभिधेन सर्वकारेण अग्रेसारितस्य नागरिकता विधेयकस्य निर्वाचनस्य पूर्वकार्यस्य च विषययोः ज्ञापितम् आसीत्। मेलने कांग्रेस दलस्य पक्षतः सभापतिः देउवा, उपसभापतिः धनराज गुरूङ, महामन्त्री गगन थापा, सर्वकारस्य प्रवक्ता च संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की च सहभागिनः आसन्। राष्ट्रपतिः भण्डारी ह एव प्रमुख प्रतिपक्षिणो नेकपा एमाले दलस्य शीर्ष नेतृभिः सहापि एतस्मिन् विषये व्यमृशदिति प्रमुख स्वकीय सचिवः अधिकारी अबोधयत्। अद्य भाद्र शुक्ल तृतीया तिथौ हिन्दू महिलाः उपवास पुरस्सरं हरितालिकायाः व्रतम् आचरन्ति। अस्मिन् पर्वणि उमामहेश्वरयोः पूजनस्तवने विधि एते। अस्य व्रतस्य प्रभावेण अविवाहिताः महिलाः सुयोग्य वरम् अविवाहिताश्च अखण्ड सुख सौभाग्ये लभन्ते इति शास्त्रीयं वचः उपलभ्यते। पुरा हिमालय तनया उमा पशुपतिं पतिम् वरितुकामा निर्जलम् उपोष्य व्रतमिदम् समाचरत् यस्य प्रभावेण सा स्वाभिलषितम् पतिम् अवाप। ततः प्रवृत्ति सौभाग्यकामासु नारीषु अस्य व्रतस्य अनुष्ठान परम्परा प्रारब्धेति हरितालिकायाः महत्वस्य सम्बन्धे इति वृत्तम् उपलभ्यते। अस्मिन् दिने नूतनानि वर्षनानि विविधानि आभूषणानि च परिधाय भजन कीर्तन नर्तनादिषु व्यापृताः नार्यः श्री पशुपतिनाथ मन्दिरे अन्येषु शिवालय परिसरेषु च दृश्यन्ते। पत्युश्चिरायुष्य कामनया दाम्पत्य जीवनस्य सुखाभिलाषेन च व्रतमिदं हिन्दू महिलासु प्रचलितमस्ति। अत्रान्तरे पशुपति क्षेत्र विकास कोषेण अस्य वर्षस्य हरितालिका पर्वण अवसरे पशुपतिनाथस्य दर्शनाय आगतानां व्रतालु भक्तजनानां कृते सहजतायै पूर्वद्वारमपि उद्घाट्यते। हरितालिका पर्वणः अवसरे शुभकामना सन्देशं ददति राष्ट्रपतिः विद्यादेवी भण्डारी। अनेन पर्वण सामाजिक सांस्कृतिकैकतां पारिवारिक सम्बन्धाञ्च अतिरिक्तं सुमधुरान् विधातुं योगदानं विधीयते इति विश्वासं व्यनक्ति। राष्ट्रपतिना भण्डारिणा सन्देशे नारी सामर्थ्यस्य अभिव्यञ्जकेन हरितालिका पर्वण सामाजिकैकतायै महिला सशक्तिकरणाय सामाजिक सद्भावस्य संस्थापनाय च अवसरः निर्मीयमाणोस्तीति उल्लिखन्त्या पर्वेदं महिला जागरणस्य सन्देशविस्तारकस्य सामाजिक मञ्चस्य रूपेण मन्तुं शक्यते इत्युक्तमस्ति। राष्ट्रपतिना भण्डारिणा सन्देशे महिला विरोधिनिः सर्विदः भेदभाव हिंसा सामाजिक कुरीतिः समाप्य समतामूलक समाजस्य निर्माणाय हरितालिका पर्वणा अस्मभ्यं सर्वेभ्यो नवीनोत्साह तत्परता च प्रदीयते इत्यपेक्षितं वर्तते। आदर्शमयं सामाजिक वातावरणं चिरं जीवयितुं सदाचारयुक्तां जीवनशैलीम् अवलम्बितुं देशस्य कला संस्कृत्योः संरक्षण पुरस्सरम् आगामी सन्तत्यै हस्तान्तरयितुं च अस्माकं मौलिक पर्वोत्सवानां गरिमणः उच्चैः संस्थापनम् अत्यावश्यकम् अस्तीति राष्ट्रपतेः भण्डारिणः सन्देशे उल्लिखितं वर्तते। एवमेव प्रधानमन्त्रिणा शेरबहादुर देवाभिधेन प्रदत्ते शुभकामना सन्देशे उक्तमस्ति शान्तेः विकासस्य सुशासनस्य च आकांक्षायाः व्यवहारे एव रूपान्तरणस्य प्रयासे निरन्तरं क्रियाशीलता वर्तते। प्रधानमन्त्रिणा देवाभिधेन सन्देशे सांस्कृतिकेन हरितालिका पर्वणा नेपाली समाजे विद्यमानः लैंगिक जातीय वर्गीय प्रवृत्ति सर्वविधाः असमानताः समाप्यन्ते इति विश्वासः व्यक्तो वर्तते। प्रधानमन्त्रिणा देवाभिधेन अनेन पर्वणा पारस्परिक मेल सद्भाव सहिष्णुतानाम् अभिवर्धन पुरस्सरं राष्ट्रियैकतायाः आधारस्तम्भस्य रूपेण संस्थापनस्य दिशि एकीभूय अग्रे वर्धितुं प्रेरणा मिलतु इति कामना विहिता वर्तते। विधि न्याय संसदीय विषय मन्त्री गोविन्द प्रसाद शर्मा कोइराला कथयति संक्रमण कालिक न्याय सम्बद्धम विधेयकम अनेनैव अधिवेशनेन पारिति कर्तव्यम् प्रतिनिधि सभायां विहितम सैद्धान्तिक विमर्शनम् आदृत्य उत्थापितान् प्रश्नान् उत्तरेण मन्त्री कोइराला अवोचत् अनेनैव अधिवेशनेन विधेयकमिदम् अपारीकृतम् सद न्यायस्य प्रतीक्षायां विद्यमानः समुदायः पीडितो भविष्यति। असौ सर्वोच्च न्यायालयस्य निर्णयः अन्तर्राष्ट्रिय विधेये वैपरीत्येन नागत इति तर्केण अवदत् एतस्मिन् विषये विमर्शनाय सर्वकारः तत्परो वर्तते। विधेयकस्य सैद्धान्तिक विमर्शनस्य क्रमे सांसदः अवदन् शान्ति प्रक्रियायाः तार्किक निष्कर्षे प्रापणार्थं विलम्बनं न विधेयं शान्ति संविधायं हस्ताक्षरण सम्पादनस्य षोडश वर्षाणां पश्चात् संक्रमण कालिक न्याय सम्बद्ध विधेयकस्य प्राप्तेः कारणात् एतादृशे संवेदनशील विषये गभीरेण च भाव्यम्। इमे शान्ति प्रक्रियायाः अवमूल्यनम् न विधेयम् इति चर्चयन्तः पीडितजनैः सह विमृश्य परामृश्य च एभिः सह सम्बद्धानां विषयाणाम् उपेक्षां विना प्रक्रियाम् अग्रे वर्धयितुं बलं प्रादुः। प्रतिनिधिसभायाः अपरोपवेशः भाद्रस्य सप्तदशे दिवसे शुक्रवासरे दिवा एकवादने वस्ता। राष्ट्रिय सभायाः अन्तर्गतायाः विधायन व्यवस्थापन समिते ह्यसिम्म प्रासादे उपविष्टे उपवेशे 63-अधिक-2000 विक्रम वर्षीयस्य नेपाली नागरिकता विधेयकस्य संशोधनाय निर्मिते विधेयके राष्ट्रपतितः परामर्शनैः सह प्राप्तस्य सन्देशस्य विषये विमृष्टमस्ति। उपवेशे गृहमन्त्री बालकृष्ण खाण राष्ट्रपतितः प्राप्तं परामर्शनं सर्वकारेण गभीरेण मतमिति चर्चयन् अवोचत् सर्वैः दलैः सह दीर्घकालिक परामर्शनस्य पश्चात् विधेयकं सर्वकारेण अग्रे वर्धापितमस्ति। मन्त्री खाण प्रमुख प्रतिपक्षे दलेनापि विषयेऽस्मिन् मौन सहमतिः दर्शितास्तीति कारणेन नेपाली नागरिकाः नागरिकतातो वञ्चिताः न भवेयुः इति अभिप्रायेण सर्वकारेण विधेयकं संसदि प्रस्तुतमिति ज्ञापितवान्। मन्त्री खाण 90-2000 विक्रम वर्षीयस्य नागरिकताधिनियमस्य आधारेण एव वर्तमानं विधेयकम् आनीतमिति संस्पष्टयत्। लक्षशो नेपालिनः नागरिकतायाः अभावस्य कारणेन अनागरिकाः सम्भूताः सन्तीत्यत्र सर्वैः पक्षैः मननं विधेयमिति चर्चयन् मन्त्री खाण विधेयकमिदं निर्वाचन केन्द्रितं नास्तीति स्पष्टीकृतवान्। समितेः अपरूपवेशः स्वभाजस्य 15 दिवसे उपवेशनत्वेन स्थगितोऽस्ति। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः निगदति विस्तृत शान्ति संविधायः विपरीततया विधीयमानः तर्कः गभीरः आपत्तिजनकश्च वर्तते। उपत्यका विशेष प्रदेश समितेः प्रशिक्षण कार्यक्रमे ह्य अध्यक्ष प्रचण्डः अवोचत् विस्तृत शान्ति संविधायः मर्मणः भावनायाश्च विपरीतं तर्कम् उपस्थाप्य माओवादी दलस्य दुर्बलीकरणस्य उद्देश्येन तर्काः विधीयमानाः सन्ति। असौ विलोपितानां व्यक्तिनाम् अनुसन्धान सत्यनिरूपण मेलायोगेन सम्बद्धं विधेयकम् आदृत्य विहितः तर्कः गभीरेण अभिप्रायेण आगतोऽस्तीति अगदत्। अध्यक्ष प्रचण्डः 12 सहमतिः विस्तृत शान्ति संविधान च निर्णय प्रापणात् रुद्धुं प्रयत्नः विधीयमानोऽस्ति। असौ नागरिकता विधेयकं नैर्वाचनिकं विषयं सम्पादयितुम् अनावश्यक प्रचारः विधीयमानोऽस्तीति आरोपयत्। इति समाचारः।